एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दहालः। बझाङ जनपदे जीपयानस्य दुर्घटनायां चत्वारो जनाः मृताः सन्ति। गतरात्रौ तलकोट ग्रामपालिकातः जनपद मुख्यालय चैनपुरे प्रस्थानस्य क्रमे धमेना स्थान निकटे बोलेरो जीपयानम् दुर्घटितम् सत् चत्वारो जनाः मृता सन्तीति बझाङ जनपद प्रहरी प्रमुख युवराज भण्डारी अज्ञापयत। मृतकेषु जीपयान चालकः केदारस्यु ग्रामपालिकायाः प्रथमवडा क्षेत्रस्य आसन्न त्रयस्त्रिंशत् वर्षीय शमशेर मल्ल, तलकोट ग्रामपालिकायाः चतुर्थ वडा क्षेत्रस्य द्वासप्तति वर्षीय जौमती देवी धामी, तदीय पुत्र षड्त्रिंशत् वर्षीय बम्ब बहादुर धामी, तदीय पौत्री षड् वर्षीय आकृति धामी च मृता सन्तीति प्रेरणा ज्ञापितम् वर्तते। प्रतिनिधि सभा अन्तर्गतया राज्य व्यवस्था सुशासन समित्या 69-2000 विक्रम वर्षीयम् भ्रष्टाचार निवारणाधिनियमम् संशोधयितुम् निर्मितम् विधेयकम् सर्वसम्मत्या पारितीकृतम् वर्तते। ह्यः सिंहप्रासादे उपविष्टे समितेः उपवेशे सभापतिः रामहरि खतिवडा राष्ट्रिय सभायाम् निर्मितम् विधायन व्यवस्थापन समित्याः प्राप्तम् च विधेयक संशोधन प्रतिवेदनम् निर्णयार्थम् प्रस्तुतवान् आसीत्। तदनु समित्या विमर्शनम् कृत्वा विधेयकमेतद् सर्वसम्मत्या पारितीकृतम् वर्तते। विधेयके भ्रष्टाचारस्य विषये अनुसन्धान निवेदनम् प्रदातुम् समयावधेः सीमायाः निर्धारणम् कृतम् नास्तीति समितेः सभापति खतिवडा अज्ञापयत्। ततः पूर्वम् विधेयके विद्यमानेषु विषयेषु सहमतिम् धर्तुम् समितेः सदस्यस्य हृदयराम थान इत्यस्य संयोजकत्वे संघटितया उपसमित्या प्रस्तुते प्रतिवेदने च विमर्शनम् कृतम् आसीत्। समितेः उपवेशे सांसदै उत्थापितान् प्रश्नान् उत्तरयन् गृहमन्त्री रमेश लेखकः भ्रष्टाचार निवारणम् सुशासनम् च वर्तमान सर्वकारस्य प्राथमिकतायाम् वर्तते इत्यतः सर्वकारेण तदनुसारेणैव कार्यम् क्रियमाणम् अस्तीति अवोचत। नेकपा एमाले दलस्य सचिवालये उपवेशेन अस्यैव पौषमासस्य एकविंशे दिवसे आयोक्ष्यमाणे दलस्य केन्द्रीय समिते उपवेशे प्रस्तोष्यमाणम् राजनीतिक प्रतिवेदनम् पारितीकृतम् वर्तते। ह्य ललितपुर जनपदस्य च्यासल स्थानवर्तिनी दलस्य केन्द्रीय कार्यालये उपविष्टेन एमाले दलस्य सचिवालये उपवेशेन दलाध्यक्षस्य प्रधानमन्त्रिणश्च केपी शर्मा ओलिनः पक्षत केन्द्रीय समितौ प्रस्तोष्यमाणम् राजनीतिक प्रतिवेदनम् आधृत्य विमृश्य पारितीकृतम् अस्तीति उपमहासचिवः प्रदीप ज्ञवाली असूचयत। उपवेशानन्तरम् संचारकर्मिभिः सह उपमहासचिवः ज्ञवाली नूतन सर्वकारस्य संघटनानन्तरम् प्रथमवारम् केन्द्रीय समितेः उपवेशः आहूतोऽस्ति इत्यतः अध्यक्षस्य प्रतिवेदने नेपाली कांग्रेस नेकपा एमाले दलयोः मध्ये सहकार्यस्य कारणम् औचित्येन सहकार्येण च सृष्टानाम् अवसराणाम् विश्लेषणम् च विहितम् अस्तीति उदैरयत। एमाले दलस्य केन्द्रीय समितेः उपवेशः सैव पौषमासस्य 21-22 दिवसयो दलस्य केन्द्रीय कार्यालये आहूतमस्ति। स्वास्थ्य जनसंख्या मन्त्रणा प्रदीप पौडेलेन विद्यालय स्वास्थ्य सेवा सम्बद्धायाः परिचारिका कार्यक्रम सञ्चालन सम्बद्धायाश्च निर्देशिकायाः परिमार्जनम् विधाय नूतन निर्देशिका स्वीकृता वर्तते। सम्प्रति सप्तानाम् प्रदेशानाम् 167-73 च विद्यालयेषु स्वास्थ्य कार्यक्रमोऽयम् क्रियान्वितो वर्तते। 500 विद्यार्थीयुतेषु विद्यालयेषु एकछात्र एका छात्रा च स्वास्थ्य दूतौ भवतः। एकादशोत्तरैकशत मेगावाट मित क्षमतायाः रसवागढ़ी जल विद्युदायोजनया व्यावसायिकम् उत्पादनम् प्रारब्धमस्ति। चिलिमे जलविद्युत् संस्थायाः सहायक संस्थया रसवागढ़ी जलविद्युदायोजनया प्राविधिक परीक्षणादीनि सम्पूर्णानि कार्याणि समाप्य व्यावसायिकम् उत्पादनम् प्रारभ्य राष्ट्रिय प्रणाल्याम् विद्युद्योजितास्ति। मधेश प्रदेश सर्वकारेण उच्च शिक्षायां महिलानां प्राप्तेः सुनिश्चयनं वर्धयितुं छात्रवृत्तेः व्यवस्था विहिता अस्ति। प्रदेशस्य अतिविपन्न सीमान्तकृत समुदायानां छात्राभ्य उच्च शिक्षां प्रदातुं छात्रवृत्तेः व्यवस्था विहिता अस्ति। प्रदेशस्य दलित मुस्लिम विपन्न पारिश्रमिक छात्राभ्य छात्रवृत्तिः प्रदीयते इति मधेस प्रदेश शिक्षा निर्देशनालयेन ज्ञापितं वर्तते। प्रधानमन्त्री केपी शर्मा ओली निगदति आधुनिकस्य समृद्धस्य च नेपालस्य निर्माणाय संस्कृत शिक्षायाः उन्नयनं महत्वपूर्णम् अत्यावश्यकं च वर्तते। बालवाटारवर्तिनी प्रधानमन्त्री निवासे ह्य सम्पन्ने नेपाल संस्कृत विश्वविद्यालयस्य सभायाः सप्तसप्ततितमे उपवेशे विश्वविद्यालयस्य कुलपतिश्च प्रधानमन्त्री ओली संस्कृतेन समाजस्य विकासाय महत्वपूर्णा भूमिका निर्व्यूढास्ति, यतः विज्ञानेन सह संयोज्य अस्याः विद्यायाः संरक्षणाय अन्वेषणाय अनुसन्धानाय च सर्वकारेण ध्यानं दीयते इति अवोचत। प्रधानमन्त्री ओली नेपालस्य आधुनिक शिक्षायाः आधारभूतया संस्कृत शिक्षया राजनीतिक जागरणाय योगदानं प्रदत्तम् अस्ति इति उदैरयत। उपवेशे विश्वविद्यालयस्य सहकुलपतिः शिक्षा विज्ञान प्रविधि मन्त्री च विद्या भट्टराई राष्ट्रिय शिक्षा नीत्यनुसारेण उच्च शिक्षां प्रतिस्पर्धिनीम् उत्पादनमुखीम् अनुसन्धानमुखीम् च विधातुं बलं दत्तवती। विश्वविद्यालय सभायाः उपवेशे कुलपतिः प्राध्यापकः डाक्टर धनेश्वर नेपालः प्राचीनानां ऋषीणां तपस्यया निःसृते संस्कृत वाङ्मये ज्ञान विज्ञानस्य धारा प्रवाहिता अस्ति, यतः अस्याः मौलिकतायाः रक्षया सह आधुनिकीकरणं विधास्यते इति प्रतिबद्धतामभिव्यनक। सभायाः उपवेशेन एतस्य आर्थिकवर्षस्य शैक्षिक कार्यक्रमेण सहैव वार्षिकम् आयव्ययकं च पारितीकृतं वर्तते। प्रधानमन्त्रिणा केपी शर्मा ओलिनः पूर्वराष्ट्रपतेः विद्या भण्डारी इत्यस्याश्च मध्ये ह्य मेलवार्ता सम्भूता अस्ति। बुढा नीलकण्ठवर्तिनी पूर्वराष्ट्रपतेः भण्डारी इत्यस्याः निवासे सम्भूते अनयोर्मेलने नेकपा एमाले दलस्य पश्चात्तनेषु राजनैतिक गतिविधिषु सामयिक विषयेषु च विमृष्टमिति पूर्वराष्ट्रपतेः भण्डारिणः स्वकीय सचिवालयेन ज्ञापितं वर्तते। सर्वकारेण द्वादश निर्माण संस्थाः आपूर्तिकर्तारश्च कलंक सूच्याम् स्थापिताः वर्तन्ते। सार्वजनिक क्रयणानुगमन कार्यालयेन ह्य सूचनां प्रकाश्य सार्वजनिक निकायानां कार्यालयस्य निर्णयस्य अनुसारेण एताः संस्थाः आपूर्तिकर्तारश्च कलंक सूच्याम् स्थापिताः सन्तीति उल्लिखितम् अस्ति। सूचनायां सार्वजनिक क्रयणाधिनियमस्य अनुसारेण द्वादशानां संस्थानां कलंक सूच्याम् स्थापनाय निर्णीतम् अस्तीति उल्लिखितम् वर्तते। राष्ट्रिय सभाया सार्वजनिक नीति प्रत्यायोजित विधायन समित्या लघुद्योगानाम् अवस्थाया उपभोक्तृणां हित संरक्षणस्य अवस्थायाः मूल्यवृद्धि नियन्त्रणस्य च कृते अनुगमनस्य अवस्थायाः मन्त्रालयेन विहितानां कार्याणां विषये च विमृष्टं वर्तते। उद्योग वाणिज्यापूर्ति मन्त्रालयेन समित्या विहिते विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् उद्योग वाणिज्यापूर्ति मन्त्री दामोदर भण्डारी कृषौ आधृतानाम् उद्योगानाम् व्यवस्थापनाय आवश्यकाधिनियमानाम् संशोधनस्य कार्यम् अग्रे वर्धितम् अस्ति इति अज्ञापयत् इति समाचाराः।